हेलो हेडिंग अभिज्ञान शाकुंतलस्य अतिलघुत्तरीयाणि लघुत्तरीयाणि च प्रश्नोत्तराणि। हेडिंग अतिलघुत्तरीयाणि प्रश्नोत्तराणि। प्रश्न संख्या एक, अभिज्ञान शाकुंतलस्य रचयिता कः? उत्तरम्, अभिज्ञान शाकुंतलस्य रचयिता महाकविः कालिदासः। प्रश्न संख्या दो, पुरा कवीनां गणना प्रसंगे कनिष्ठिकाधिष्ठितः कः? उत्तरम्, पुरा कवीनां गणना प्रसंगे कनिष्ठाकाधिष्ठितः कालिदासः। प्रश्न संख्या तीन, अद्यापि कथं मानयमिका सार्थवती बभू? उत्तरम्, अद्यापि तत्तुल्यकविर्भावादनमिका सार्थवती बभू। प्रश्न संख्या चार, कालिदासस्य का प्रसिद्धा? उत्तरम्, कालिदासस्य उपमा प्रसिद्धा। प्रश्न संख्या पाँच, अभिज्ञान शाकुंतले कोऽङ्गसि रसः? उत्तरम्, अभिज्ञान शाकुंतले श्रृंगारोरंगी रसः। प्रश्न संख्या छः, अभिज्ञान शाकुंतले कः नायकः? उत्तरम्, अभिज्ञान शाकुंतले दुष्यंतः नायकः। प्रश्न संख्या सात, दुष्यंतः कीदृशः नायकः? उत्तरम्, दुष्यंतः धीरोदात्तः नायकः। प्रश्न संख्या आठ, अभिज्ञान शाकुंतलस्य नायिका का? उत्तरम्, अभिज्ञान शाकुंतलस्य नायिका शकुंतला। प्रश्न संख्या नौ, शकुंतला कीदृशी नायिका? उत्तरम्, शकुंतला स्वीय नायिका अस्ति। प्रश्न संख्या दस, कालिदासस्य किं सर्वस्वम्? उत्तरम्, कालिदासस्य सर्वस्वम् अभिज्ञान शाकुंतलम्। प्रश्न संख्या ग्यारह, काव्येषु किं रम्यम्? उत्तरम्, काव्येषु नाटकं रम्यम्। प्रश्न संख्या बारह, नाटकेषु किं रम्यम्? उत्तरम्, नाटकेषु रम्यम् शाकुंतलम्। प्रश्न संख्या तेरह, महाकवि कालिदेशानाभिज्ञान शाकुंतलस्य कथानकं कुतः संगृहीतम्? उत्तरम्, महाकवि कालिदासेनाभिज्ञान शाकुंतलस्य कथानकं महाभारतस्य दिपर्वणः शाकुंतलोपाख्यान संगृहीतम्। प्रश्न संख्या चौदह, अभिज्ञान शाकुंतलम् रूपकस्य कः भेदः? उत्तरम्, अभिज्ञान शाकुंतलम् रूपकस्य नाटक भेदः। प्रश्न संख्या पंद्रह, अभिज्ञान शाकुंतले कति अंकाः सन्ति? उत्तरम्, अभिज्ञान शाकुंतले सप्त अंकाः सन्ति। प्रश्न संख्या सोलह, षष्ठु आद्या सृष्टिः का? उत्तरम्, षष्ठु आद्या सृष्टिः जलरूपा। प्रश्न संख्या सत्रह, विधिहूतं हविः कः वहति? उत्तरम्, विधिहूतं हविः पावकः वहति। प्रश्न संख्या अठारह, कया प्राणिनः प्राणवन्तः? उत्तरम्, वायुरूपया भगवतः मूर्त्या प्राणिनः प्राणवन्तः भवन्ति। प्रश्न संख्या उन्नीस, का सर्वबीज प्रकृतिराहुः? उत्तरम्, पृथ्वी रूपा भगवतः तनु सर्वबीज प्रकृति राहुः। प्रश्न संख्या 20, अभिज्ञान शाकुंतलस्य प्रथमे श्लोके किं छन्दः? उत्तरम्, अभिज्ञान शाकुंतलस्य प्रथमे श्लोके शकधरा छन्दः विज्ञेयम्। प्रश्न संख्या 21, कश्च दिवसः परिणाम रमणीयः? उत्तरम्, ग्रीष्मसमयस्य दिवसः परिणाम रमणीयः। प्रश्न संख्या 22, काः शिरीषकुसुमानि अवतंसन्यन्ति? उत्तरम्, अवतसयन्ति दयमानः प्रमदा शिरीषकुसुमानि। प्रश्न संख्या 23, राजा दुष्यन्तः केन हृतः? उत्तरम्, एष राजा दुष्यन्तः सारङ्गलातिरहंसा हतः। प्रश्न संख्या 24, सुतः राजानं दुष्यन्तं कमिव पश्यति? उत्तरम्, सुतः राजानं दुष्यन्तं मृगानुसारिणं साक्षात् पिनाकमिनामेव पश्यति। प्रश्न संख्या 25, कः वियति बहुतरं स्तोकमूर्यवयं प्रयाति? उत्तरम्, सारंगो वियति बहुतरं स्तोकमूर्व्या प्रयाति। प्रश्न संख्या 26, कस्य शरः वज्रसारः? उत्तरम्, दुष्यन्तस्य शरः वज्रसारः। प्रश्न संख्या 27, कस्याश्रमः अनुमालिनीतीरं दृश्यते? उत्तरम्, कुलपतेः कण्वस्याश्रमः अनुमालिनीतीरं दृश्यते। प्रश्न संख्या 28, कुलपतिः किमर्थं सोमतीर्थः गतः? उत्तरम्, कुलपतिः कण्वदुहितरं शकुन्तलामातिथिसत्काराय नियुज्यदैवमस्य प्रतिकूलं शमयितुं सोमतीर्थं गतः। प्रश्न संख्या 29, कथं प्रविष्टव्यानि तपोवनानि नाम? उत्तरम्, विनीतवशेण प्रविष्टव्यानि तपोवनानि नाम। प्रश्न संख्या 3, प्रश्न संख्या 30, केषां द्वाराणि सर्वत्र भवन्ति? उत्तरम्, भवितव्यातानां द्वाराणि सर्वत्र भवन्ति। प्रश्न संख्या 31, कथं यौवनमङ्गेषु सन्नद्धम्? उत्तरम्, कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम्। प्रश्न संख्या 32, केषां कुत्रान्तः कर्णप्रवृत्तेः प्रमाणम्? उत्तरम्, सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः कर्णप्रवृत्तेः। प्रश्न संख्या 33, शकुन्तलायाः कथं कण्वः पिता? उत्तरम्, शरीरसर्ववर्धनादिभिः स्तात्काश्योऽपि अस्याः शकुन्तलायाः पिता। प्रश्नसंख्या 34, देवैः मेनका कथं प्रेषिता? उत्तरं, जातशङ्खे देवे नियमविघ्नकारिणी मेनका नामप्सरा प्रेषिता। प्रश्नसंख्या 35, शमप्रधानेषु तपोधनेषु गुणं किमस्ति? उत्तरं, शमप्रधानेषु तपोधनेषु गुणं हि दाहात्मकम् अस्ति तेजः। प्रश्नसंख्या 36, नृपाणां किं ददति आरण्यकः? उत्तरं, तपः षड्भाग्यक्षयं दत्तात्यरणकः हि हिरण्यपाणाम्। प्रश्नसंख्या 33, आपन्नभयसत्रेषु दीक्षिता खलु के? उत्तरं, आपन्नभयसत्रेषु दीक्षिता खलु पौरवः। प्रश्नसंख्या 28, कः शशाङ्कं ग्लपयति? उत्तरं, दिवशः शशाङ्कं ग्लपयति। प्रश्नसंख्या 39, केन विवाहेन वह्व्यो राजर्षिकन्यकाः परिणीतः? उत्तरं, गान्धर्वेण विवाहेन वह्व्यो राजर्षिकन्यकाः परिणीतः। प्रश्नसंख्या 40, कीदृशी विद्या अशोचनीया भवति? उत्तरं, शुशिष्यपरिदत्ता विद्या अशोचनीया भवति। प्रश्नसंख्या 41, कः गृहेण पीड्यन्ते? उत्तरं, नवेः तनया विश्लेष दुःखे गृहेण पीड्यन्ते। प्रश्नसंख्या 42, वनौकशोऽपि सन्तो लौकिकज्ञा वयं कस्येयं मुक्तिः? उत्तरं, वनौकशोऽपि सन्तो लौकिकज्ञा वयमिति मुक्तिः महर्षे कण्वस्य। प्रश्नसंख्या 43, अर्थो हि कन्या परकीव एवेति कस्य युमुक्ति? उत्तरं, अर्थो हि कन्या परकीय एव सुक्तिरियं कण्वस्य। प्रश्नसंख्या 44, रात्रिं दिवं कः प्रयाति? उत्तरं, रात्रिं दिवं गन्धवः प्रयाति। प्रश्नसंख्या 45, कै तर्वः नम्रा भवन्ति? उत्तरं, भवन्ति नम्रास्तर्वः फलागमः। प्रश्नसंख्या 46, धर्मांशौ तपति किं न आविर्भविष्यति? उत्तरं, धर्मांशौ तपति तमः न आविर्भविष्यति। प्रश्नसंख्या 47, केषु अमि विकारः मूर्छन्ति? उत्तरं, मूर्छन्त्यमि विकारः प्राणश्चर्मित्तेषु। प्रश्नसंख्या 48, क इव च न खलु परिभोक्तुं नैव शक्नोमि हातुम्? उत्तरं, श्लोक, भ्रमर इव विभाते कुन्दमन्ततुसारं न च खलु परिभोक्तुं नैव शक्नोमि हातुम्। प्रश्नसंख्या 49, परिभृताः कमन्यर्द्विजे पोषयन्ति? उत्तरं, परिभृताः सोमपत्याजात् मन्यर्द्विजे पोषयन्ति। प्रश्नसंख्या 50, परीक्ष किं कर्तव्यम्? उत्तरं, परीक्ष कर्तव्यं विशेषात् संगतं रह। प्रश्नसंख्या 51, अज्ञातहृदयेषु किं वैरी भवति? उत्तरं, अज्ञातहृदयेषु वैरी भवति सौहृदम्। प्रश्नसंख्या 52, पतिकुले कस्य दास्यमपि क्षमम्? उत्तरं, पतिकुले स्त्रीजनस्य दास्यमपि क्षमम्। प्रश्नसंख्या 53, वशीनां कीदृशा वृत्तिः? उत्तरं, वशीनां परिप्रग्रहसंश्लेषपराङ्गमुखी वृत्तिः। प्रश्नसंख्या 54, मातलिः कस्य सारथिः? उत्तरं, मातलिः इन्द्रस्य सारथिः। प्रश्नसंख्या 55, कः सप्तनिकः तपस्यति? उत्तरं, सुरासुरगुरः मारीचः सपत्निकस्तपस्यति। प्रश्नसंख्या 56, का नामौषधिः सर्पो भूत्वा दशति? उत्तरं, अपराजिता नामौषधिः सर्पो भूत्वा दशति। प्रश्नसंख्या 57, अपराजिता नामौषधिः कदा केन दत्ता? उत्तरं, अपराजिता नामौषधिः सर्वदमनस्य जातकर्मसमये भगवता मारीचेन दत्ता। प्रश्नसंख्या 58, शकुन्तलायाः दुष्यन्तेन पुनर्मेलनं कस्या समये अभवत्? उत्तरं, शकुन्तलायाः दुष्टेन पुनर्मेलनं मारीचिया समये अभवत्। प्रश्नसंख्या 59, का दीर्घं विरहव्रतं बिभर्ति? उत्तरं, शकुन्तला दीर्घं विरहव्रतं बिभर्ति। प्रश्नसंख्या 60, पार्थिवः कस्मे प्रवर्तताम्? उत्तरं, पार्थिवः प्रकृतिहिताय प्रवर्तताम्। हेडिंग, लघु उत्तराणि प्रश्नोत्तराणि। प्रश्नः, कालिदासस्य कति ग्रन्थाः सन्ति? उत्तरं, कालिदासस्य अष्टौ ग्रन्थाः सन्ति, तद्यथा एक कुमार संभव महावाक्य महाकाव्यम्, नंबर 2 रघुवंश महाकाव्यम्, नंबर 3 मेघदूत खंड काव्यम्, नंबर 4 ऋतुसंहार, नंबर 5 श्रृंगार तिलकम त्रीणी नाटकानि, नंबर 6 अभिज्ञान शाकुंतलम्, नंबर 7 मालविकाग्निमित्रम्, नंबर 8 विक्रमोर्वशीयश्च। प्रश्नः, कालिदासस्य उपमा विषये किमपि उदाहरणं लिख। उत्तरं, कालिदासस्य उपमा विषये उदाहरणमेकम् अवलोकयन्तु सुधय। श्लोक, संचिरणे दीपशिखे वरात्रिर्ययं व्यतीयाय पतिवरांसा नरेन्द्रमार्गाट्टाव इप्रपेदे विवरणभावं स स भूमिपालः। प्रश्न, धीरोदात्तस्य लक्षणं किमदस्ति? उत्तरं, धीरोदात्तनायकस्य लक्षणमुक्तं साहित्यदर्पणे। श्लोक, अविकत्कथन क्षमावान अतिगंभीरो महासत्व स्थयानिगुणमानो धीरोदत्तो दृढवृतः कथितः। प्रश्नः, नायकः कति विधः भवति? उत्तरं, नायकः चतुर्विधः भवति यथोक्तं साहित्यदर्पणे, धीरोदात्त, धीरोतस्तथा धीरललितश्च धीरप्रशान्त इत्यमुक्तः प्रथमश्चतुर्भेदः। प्रश्नः, नाटकस्य किं लक्षणम्? उत्तरं, नाटकस्य लक्षणमुक्तः साहित्यदर्पणे, नाटकं ख्यातवृत्तं स्यात् पञ्चसन्धिसमन्वितम्। प्रश्नः, कति रूपकाणि भवन्ति? उत्तरं, 10 रूपकाणि भवन्ति तदुक्तं साहित्यदर्पणे, नाटकमत्प्रकरणं भाणव्यायोग समकारिणीमा इहामृगाङ्कवेत्ति प्रहसन्मिति रूपकाणि दश। प्रश्नः अभिज्ञानशाकुन्तलस्य व्युत्पत्तिलेख्या। उत्तरम् अभिज्ञायतेन यदम् अभिज्ञानं शकुन्तलैर्लिता शकुन्तला शकुन्तलामधिकृत्य कृतं काव्यं शाकुन्तलम् अभिज्ञानं च तत् शाकुन्तलम् अभिज्ञानं शाकुन्तलमिति। अभिज्ञान प्रश्नः अभिज्ञानशाकुन्तले के मुनित्रयः। उत्तरम् अभिज्ञानशाकुन्तले त्रयः मुनयः सन्तः सन्ति एक कण्वः दो दुर्वासा तीन मरीचिनन्दनः कश्यपश्च। प्रश्नः शारङ्गरव शारदत्तो कौ। उत्तरम् शारङ्गरशारदत्तो महर्षि कण्वस्य व्यवहारज्ञो आज्ञाकारिणो शिष्यो स्तः। प्रश्न अनुसूयाप्रियं वदे के। अनुसूयाप्रियं वदे शकुन्तलायाः परिसख्यो। प्रश्न गौतमी का अस्ति। उत्तरम् गौतमी महर्षि कण्वस्य धर्मभगिनी। प्रश्न सर्वदम्नः कः। उत्तरम् सर्वदम्नः शकुन्तलायाः पुत्रः। प्रश्न अभिज्ञानशाकुन्तले विदूषकस्य किं नाम अस्ति। उत्तरम् अभिज्ञानशाकुन्तले विदूषकस्य नाम माधव्यो अस्ति। प्रश्न का मिश्रकेशी। उत्तरम् मिश्रकेशी मेनकायाः प्रियसखी एका अप्सरा अस्ति। प्रश्न अदितिः का। उत्तरम् अदितिः महर्षि कश्यपस्य धर्मपत्नी देवानां माता दक्षस्य कन्या अस्ति। प्रश्न अभिज्ञानशाकुन्तलस्य मङ्गलाचरणस्य श्लोकं लिखत्। अभिज्ञानशाकुन्तले मङ्गलाचरणश्लोकम् अस्ति। श्लोक या षष्टिः षष्टुराद्या वहति विधियुतं या हविर्याच होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वं यामाहु सर्वबीज प्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तुभिरवतु वस्ताभिरष्टाभिरिशः। प्रश्नः काभिः प्रत्यक्षाभिः तनुभिरष्टाभिः शङ्करः पातु। उत्तरम् जल वह्नि यजमान चंद्र सूर्य गगन धरणी वायुरूपाभिष्टाभि प्रत्यक्षाभिस्तनुभि शंकरो न वह पुनातु यथोक्तम्। श्लोक भूमिरापनलो वायुरात्मा व्योम रविशशि इत्यष्टो सर्व लोकानां प्रत्यक्षा हरमूर्तयः। प्रश्नः नान्द्याः किं लक्षणम्। उत्तरम् नान्द्याः लक्षणमुक्तम् साहित्यदर्पणे। श्लोक देवतादी नमस्कार मंगलारंभ पाठके या क्रिया नंद्यते नाट्यारंभे नांदितु सा स्मृता। प्रश्न सूत्रधार कः भवति। उत्तरम् सूत्रं प्रयोगानुष्ठानं धारयति सूत्रधार यया नाटकी सर्वपात्र प्रवर्तना प्रयोजिकं सर्वान्तः स्यूतं पुष्पमालाभिः धारयति सूत्रधारः तल्लक्षणमुक्तम्। श्लोक नाट्योपकरणेन्दिनी सूत्रमित्यभिधीयते सूत्रं धारयत्यर्थे सूत्रधारो निगद्यते। प्रश्नः किं नाम नेपथ्यम्। उत्तरम् नेपथ्यम् वेशविन्यासः तदर्थ यद्गृहं तदपि नेपथ्यम् यत्र नाटकीयपात्राणि स्ववेशविन्यासान् प्रकुर्वते तन्नेपथ्यमिति। प्रश्नः प्रयोगविज्ञानं न साधु कुतः मन्यते। उत्तरम् आपरितोषाद् विदुषां न साधु मन्ये प्रयोगविज्ञानम्। प्रश्नः केषाम् आत्मन प्रत्ययं चेतः भवति। उत्तरम् बलवदपि शिक्षितानां प्रत्ययं चेतः। प्रश्नः कथं तपोवनस्य भोगः ज्ञायते। उत्तरम् सूतः दृश्यन्तं प्रतिकथयति इह हि क्वचित् तरुणां तलेषु शुकगर्भकोटर्मुखभ्रष्टाः मुनिधान्यकणाः विद्यन्ते कुत्रापि इङ्गुदीफलभिदः प्रस्निग्धाः पाषाणखण्डाः सूच्यन्ते कस्मिंश्चित् भागे विश्वासोपगमात् अभिन्नगतया मृगा रथशब्दं सहन्ते क्वचित् प्रदेशे तोयाधारणपथा वत्कलाग्रपरिशुत् जलाधाररेखा विभूषिता दृश्यन्ते तस्मादेभिर्लक्षणैर्यमश्रं सेवा भोगा एवानुमीयते। प्रश्नः कथं वनलताभिरुद्यानलता दूरीकृताः। उत्तरम् राजाः दुष्यन्तः मुनिकन्यकाः अवलोक्य कथयति इदं पुरोदृश्यमानम् अन्तःपुरे दुर्लभं वपुलावण्यं वा वनवासिनोऽपि जनस्य मुनिबालिकालोकस्य अस्ति तर्हि निश्चयेन वनलताभिः सौन्दर्यसौकुमर्यादिभिः गुणैः उद्यानलताः निराकृताः। प्रश्नः ऋषिकण्वः कथं शमीलतां खेतुं व्यवश्यति। उत्तरम् राजा दुष्यन्तः वृक्षसेचनादो तपोवनकर्तव्ये नियुक्तां दृष्ट्वा कथयति यः ऋषिः कण्वः पुरो दृश्यमान व्यवहाजमनोहरं शरीरं तपश्चरणयोग्यं सम्पादयितुं वाच्छन्ति सः ऋषिः नूनं नीरोत्पलपत्रधारणया कठिनां शमीवृक्षस्य शाखां हेतु समीहते। प्रश्नः किमिभिः मधुराणां मण्डनं नाकृतीनां सूक्तिरियं व्याख्येया। उत्तरम् राजा दुष्यन्तः वत्कलाभृतं शकुन्तलामवलोक्य कथयति शैवलेनापि अनुविद्धं सरसिजं रम्यं मलिनम् अपि चिह्नं चन्द्रश शोभां विस्तारयति यतः एषा पुरोदृश्यमाना कृशाङ्गी निसर्गसुन्दरी शकुन्तला वल्कलेन कामं मनोहारिणी अस्ति। कतमत वस्तु कमनीयानां कृतीनां मण्डनं न भवति अपितु सर्वमपि वस्तु रम्याणां सुषमां वर्धयन्त्येव नीलकंठस्य कंठे विषमेव कलंकेन चंद्रस्येव शैवलेन कमलस्येव अनेन वृक्षत्वशस्त्रेण अस्या शकुंतलाया शोभे व्यत्याशयः। प्रश्नः: मधुकरः कथं कृति? उत्तरं: राजा दुष्यन्तः कथयति। चलापांगा दृष्टि स्पृशो बहुशो वेपमुथि रहस्याख्यायि स्वनसि मृदु कर्णांतिकचरः करं व्याधुर्वत्या पिबसि रतिसर्वं स्वमधुकरं वयं तत्त्वा वेनेशा मधुकरं हतास्त्वं खलु कृति। प्रश्न: वसुधातलात् किं न उदेति? उत्तरं: प्रभाभिः तरणं ज्योति वसुधातलात् न उदेति। प्रश्न: प्रस्तावनायाः किं लक्षणम्? उत्तरं: प्रस्तावनायाः लक्षणम् उक्तं साहित्यदर्पणे नटी विदूषको वापि पारिपार्श्विक एव सूत्रधारणसहिता संलापं यत्र कुर्वते चित्रर्वाक्ये स्वकार्योऽर्थते प्रस्तुताक्षेपिभिमिर्थ आमुखं तत्तु विज्ञेयं नाम्ना प्रस्तावनपि सा। प्रश्न: अकृतार्थे अपि मनसिजे कारतिं कुरुते? उत्तरं: राजा दुष्यन्तो विरहणाद्विमग्ना शकुन्तलां मनसा स्मरन् विमृशति यथेच्छं शकुन्तला सुखप्राप्या न तस्या प्रदानस्य गुर्वधीनत्वात् तु मे मनः शकुन्तलाया मेनुरागसूचकानां भावानां दर्शनेन आश्वास्ययुक्तं वर्तते मनसिजे अचरित्रार्थे अपि स्त्रीपुरुषयो प्रार्थनां रतिं प्राप्तिं कुरुते सुखं जनयति नायिका समागम सुखालाभे अपि तच्चेदाश्चिभिर्यो मनो मे मोदते। प्रश्न: सेनापति मृगयाया गुणान् कथं वर्णयति? उत्तरं: मेधश्चेत्कृशोदरं लघुभवत्युत्थान योग्यं वपुः सत्त्वानापि लक्ष्यते विकृतिमिच्चित्तं भयक्रोधयो उत्कर्षं च धनविनां यदि शिव सिन्ध्यति लक्ष्ये चले मिथ्ये वसनं विदन्ति मृगयामिग्विदोदः कुतः अनेन प्रकारेण सेनापति मृगयाया गुणान् वर्णयति। प्रश्नः: शकुन्तलायाः लाभे सन्दिहानो राजां किं चिन्तयति? उत्तरं: शकुन्तलायाः लोकोत्तरं लावण्यं संचित्य तल्लाभे सन्दिहानो राजा दुष्यन्तो नर्मसचिवं विदुषकं प्रति कथयति अनाग्रातं पुष्पं किश्लयमलूनं कररुहे रणाविद्धं रत्नं मधु नवमनास्वादितसरसं अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं किमिव समुपस्थास्यति विधि। प्रश्नः: सूर्युवतयः कुत्र विजयम् आशंसते? उत्तरं: दैत्यैः बद्धवैरा सूर्युवतयः दुष्यन्तस्य अधिज्ये धनुषि पौरहुते वज्रे च विजयम् आशंसते। प्रश्न: परिहास विजल्पितं सखे इति राजा कथं कथयति? उत्तरं: शकुन्तला विषयकमनुरागं प्रच्छदायन तस्या स्वाभिलाषान हरतं च समर्थन राजा दुष्यन्तो विदुषकं ब्रूते क्व वयं क्व परोक्षं नतो मृगशावे सममेदितो जना परिहास विजल्पितं सखे परमार्थे न गृहतां वचः। प्रश्न: विष्कम्भकस्य किं लक्षणम्? उत्तरं: वृत्तवर्तिष्यमाणानां कथाशानां निदर्शकः संक्षिप्तार्थस्तु विष्कम् आदावङ्गस्य दर्शितः। प्रश्नः: राजा दुष्यन्तं कथं विघ्ना नपोहति? उत्तरः: राजा दुष्यन्त धनुषः हुङ्कारेण विघ्नानोपहरति। प्रश्नः: कः कुसुमबाणान् व्रजिसारीकरोति? उत्तरं: मदनः कुसुमबाणान् व्रजिसारीकरोति। प्रश्नः: श्रिया दुरापः कथमिप्सितो भवेत् सुक्तिरियं पूरणीया? उत्तरं: शकुन्तला द्वारा कृतमात्मनो अवरणी धारणशङ्कमानो राजा दुष्यन्त तां परिहरन् निभत्ते। श्लोक: अयं सते तिष्ठति सङ्गमोत्सुकः विशङ्कसे भीरु यतो अवधीर्णां लभेत् वा प्रार्थयित्वा न वा श्रियं श्रिया दुरापः कथमिप्सितो भवेत्। प्रश्नः: शकुन्तला पत्रे किं लिखित्वा वाचयति? उत्तरं: शकुन्तला पत्रे लिखित्वा वाचयति तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावापि निर्घृण तपति बलिस्त्वयि वृत्तमनोरथ्यङ्गानि। प्रश्नः: दुष्यन्तस्य क्वे द्वे प्रतिष्ठे? उत्तरं: राजा दुष्यन्तः कथयति परिग्रह भूत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे समुद्रवशना चोविं सखि च युवयोरियम्। प्रश्नः: गान्धर्वेण विवाहेन परिणीताः काः अभिनन्दिताः? उत्तरं: गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यका श्रूयन्ते परिणिष्ठिता पितृभिश्चभिनन्दिता यतो हि क्षत्रियश्च गान्धर्वो विवाह श्रेष्ठ उच्यते। प्रश्नः: कीदृशः बहुधा क्षायाः चरन्ति? उत्तरं: भयमादधाना सन्ध्यापयोदकपिशा पिशितशानानां राक्षसानां छाया बहुधा चरन्ति। प्रश्नः: कथाप्रमत्तः प्रथमं कृतमेव इति सम्पूर्णं पद्यं लिखत्। उत्तरं: शकुन्तलाये शापवचनं निपत्यात् विचिन्तयन्ति यन्मन्यमानसा तपोधनं वेत्सिन मामुपस्थितं स्मरिष्यति त्वां न स बोधितोऽपि सन् कथाप्रमत्तः प्रथमं कृतमेव। प्रश्नः: को नाम उष्णोदकेन नवमालिका सिञ्चति इत्यस्य भावार्थो लिख्य। उत्तरं: शकुन्तलाया शापवचन निवेदनं सर्वाथुनिचित्तमिति दुष्टान्तमुखेन प्रियंवदा कथयति। कः जनो नाम तप्तजलेन नवमालितीरतां सिञ्चति, यथा तप्तजलेन नवमालिका सिञ्चन पराद्धं, तथा शकुन्तलाये शापवचकथनम् अपराधपूर्णमस्ति। प्रश्नः: केन सूचितस्ता कण्वस्य शकुन्तला वृत्तान्तः? उत्तरम्: अग्निशरणं प्रविष्ट तात् कण्वस्य शरीरं विना छन्दोमया वाण्या शकुन्तला वृत्तान्तः सूचितः। प्रश्न: शकुन्तला हेतुर्वनस्पतिभिः कानि पदार्थानि दत्तानि? उत्तरम्: शकुन्तला हेतुर्वनस्पतिभिः आभरणानि दत्तानि। अथ च श्लोक: क्षौमं केनचिदिन्दु पाण्डुतुरणा माङ्गल्यमाविष्कृतं निष्ठुश्चरणोपभोग सुलभो लाक्षारसः केनचित् अन्येभ्यो वनदेवता कर्तलापर्वभागोत्थिते दत्तान्यभरणानि तत्कश्चलयो प्रतिद्वन्द्वभिः। प्रश्न: यास्यत्यद् शकुन्तलेति सम्पूर्णं पद्यं लिखत्? उत्तरम्: यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठस्तम्भित वाष्पवृत्ति कलुश्चिन्ताजडं दर्शनं वैकलव्यमं तावदिशुमिदं स्नेहाद्रणकोशः पीड्यन्ते गृहिणा कथं नु तनया विश्लेषित खर्वदे। प्रश्न: कीदृशी शकुन्तला पतिगृहं याति? उत्तरम्: पातुं न प्रथमं व्यवस्थति जलम युष्मावपतीषु या नादत्ते प्रीमण्डनापि भवताम् स्नेहन या पल्लवम् आद्येवः कुसुम प्रवृत्ति समये यस्या भवत्सवः सेयं याति शकुन्तला पतिगृहं सर्वे नुग्यताम्। प्रश्नः: शकुन्तलायाः पन्था कीदृशः भवतु? उत्तरम्: शकुन्तलायाः पन्था शान्तानुकूलपवनः शिवश्च भवतु। प्रश्नः: कीदृशः मृगः शकुन्तलायाः पदवीं न जहाति? उत्तरम्: पतिगेहं प्रस्थिताया शकुन्तलाया वसनाञ्चलं गृहीत्वा कर्षयन्तं मृगशिशुमोलोके महर्षि कण्वः कथयति। श्लोक: यस्ति त्वया व्रणविरोपणे मिङ्गुदीनां तैलं निश्चित मुखे कुशशुचिविद्ये श्यामः मुकुष्ठे परिवर्धितको जहाति स्वयं कृतकः पदवी मृगस्ते। प्रश्नः: महर्षि कण्वः दुष्यन्ताय किं सन्देशं कथयति? उत्तरम्: रागे दुष्यन्ताय सन्देहविमर्थं विवृणेन महर्षि कण्वः कथयति। श्लोक: अश्मान् साधु विचिन्त्य संयम धानुच उच्चय कुलम चात्मनस्त्वस्या कथमप्यबान्धव कृताम स्नेह प्रवृत्ति च ताम सामान्य प्रतिपत्ति पूर्वकमीयम दारेषु दृश्या त्वया भाग्याधीनमत्तः परम न खलु तस्त्र बंधु निचमुसते। प्रश्नः: कण्वः शकुन्तलां पतिगृहं प्राप्य किं भर्तुं शिक्षयति? उत्तरम्: कण्वः शकुन्तलां पतिगृहं प्राप्य वर्तन प्रकारं शिक्षयति यत् श्लोक: सुशुषस्व गुरुन् कुरु प्रिय सखी वृत्तिं सपत्नी जने भर्तु विपकृतापि रोषणतया मा स्मर प्रतिगमं गमः भूयिष्ठं भव दक्षिणा परिजने भोग्येषु नुत्सेकिनी यान्त्यो गृहिणी पदं युवतयो वामा कुलस्याधरा। प्रश्नः: अर्थो हि कन्या परकीव एवेति श्लोकं सम्पूर्णं लिखत्। उत्तरम्: अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिगृहीतुः जातो अस्मि सद्यो विशदांतरात्मा चिरस्य निक्षेप विमार्पयित्वा। प्रश्नः: उपन्या हि दारेषु प्रभुता सर्वतोमुखी सुक्तिरियं साधु व्याख्येया? उत्तरम्: शारदत्तो हि राज्ञ शाकं विवादो निचित इति मत्वा ततो विवादात् शारंगरव विरम्य निजकर्तव्यमुपदिशत कथयति। हे राजन, वाद विवादेन किमपि प्रयोजनं न शेष्यति, निसंशयमियं भवतोदारम् अस्माकं गुरुणा भवता कण्वेन तव समीपे प्रहिता, यद्येना त्यक्तुमिच्छसि तर्हि त्यज्यतां धर्मपत्नीत्वेव ग्रहणमन्यसे चेत् गृहाण धर्मपत्नीषु सर्वथा भर्तुरेव स्वातन्त्र्यमस्तीति प्रसिद्धमेव तस्मात् यथेच्छं कार्यम्। प्रश्नः: प्रवेशकस्य किं लक्षणम्? उत्तरम्: विश्वनाथेन सह दर्पेण प्रवेशकस्य लक्षणं लिखितम्। प्रवेशको अनुदत्तोक्त्या नीचपात्र प्रयोजितः अङ्गद्वयान्तर्विज्ञ शेषं विष्कम्भयत्या। प्रश्नः: शकुन्तलाया अङ्गुलीकं कुत्र प्रभ्रष्टम्? उत्तरम्: शकुन्तलाया अङ्गुलीकं शक्रावतारम्भ्यन्तरे शचीतीर्थसलिले प्रतिभ्रष्टम्। प्रश्नः: कीदृशी शकुन्तला विरहव्रतं विभर्ति? उत्तरम्: वसने परिधूसरे वसाना नियमाक्षमामुखी धृतकैवर्णी अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं विभर्ति। प्रश्नः: मारीचः शकुन्तलां काम आशीः ददाति? उत्तरम्: पतिपुत्राभ्यां सह प्रणमन्ति शकुन्तलां शुशाभि प्रयच्छन् महर्षि कश्यपः कथयति। श्लोक: आखण्डलसमोभर्ता जयन्तप्रतिमः सुतः आशीर्नयन ते योग्या पौलिमीसदृशी भव। प्रश्नः: दुष्यन्तः किं त्रितयं समागतम्? उत्तरम्: मारीचः दुष्यन्तभिनन्दनं कथयति। श्लोक दिष्टा शकुन्तला साध्वी सदपत्यमिदं भवान् श्रद्धावितं विधिश्चेति त्रितयं तत्समागतम्। प्रश्नः अभिज्ञान शाकुन्तलस्य भरतवाक्यं लिखत्। उत्तरं श्लोक प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतिमहतां महीयतां ममापि च क्षयमतु नीललोहितः पुनर्भवं परिगत शक्तिरात्मभूः। प्रश्नः भरतवाक्येन किं वांछति कविः? उत्तरं समस्ताः पृथ्वीपतयः स्वसुखनिरपेक्षाः सन्तः प्रजानामेव श्रेयसे सर्वदा प्रवर्तन्ताम् महाकविनां सर्षाः कविताश्च सहृदयानां हृदयेषु चमत्कारं जनयित्वा विशिष्टसम्मानं लभन्ताम्। सर्वशक्तिशाली पार्वतीपतिः परमेश्वरस्य जन्मान्तरं निरस्य शाश्वतं पदं दिशत्वति शम्। इस प्रकार अभिज्ञान शाकुंतल पुस्तक संपूर्ण हुई।